एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः पूर्वोप प्रधान गृहमन्त्री च रवि लामिछाने स्वस्य पञ्चदिवसीयम् भारत भ्रमणम् प्रपूर्य ह्य स्वदेशम् प्रत्यागतो वर्तते। सभापतये लामिछाने विदाय नयाँ दिल्लीवर्तिनी इन्दिरा गान्धी अन्तर्राष्ट्रिय विमानस्थले नेपालस्य कार्यवाहक राजदूत डा सुरेन्द्र थापा, भाजपा नाम्नो भारतीय जनता दलस्य विदेश विभाग प्रमुख डा विजय चौथाइवाले छ प्रास्थापनिकम् अभिवादनम् अर्पयताम्। भाजपा दलस्य राष्ट्रिय अध्यक्षस्य नितिन नवीन इत्यस्य निमन्त्रणायाम् पञ्चदिवसीयम् भारत भ्रमणम् प्रपूर्य तत्र विभिन्नो स्तरीय नेतृभिः सह मेलवार्ताम् कृत्वा च ह्य सायम् स्वदेशम् प्रत्यागतोऽस्ति। स्वदेश प्रत्यागमनानन्तरम् त्रिभुवनान्तर राष्ट्रिय विमानस्थले आयोजिते पत्रकार सम्मेलने सभापतिः लामिछाने भाजपा दलस्य निमन्त्रणायाम् विहितस्य भ्रमणस्य क्रमे सम्भूतासु मेलवार्तासु पारदर्शीरूपेण स्पष्टरीत्या च पारस्परिक विषयाः विमृष्टाः आसनिति अज्ञापयत्। सभापतिः लामिछाने पारस्परिक सम्बन्धात् धार्मिक पर्यटनम् यावत् अस्माकम् प्राप्त प्राथमिकताभ्य विषयेभ्य कथम् विधस्य लाभस्य अपेक्षा देशेन कृतास्थिति विषये स्पष्टम् स्वरूपम् प्रस्तुतमस्तीति असूचयत्। तदवसरे सभापतिः लामिछाने पत्रकाराणाम् जिज्ञासायाम् सीमसमस्यायाः कौटनीतिक माध्यमेन सहजतया समाधानत्वेन वर्तमान सर्वकारः अग्रे वर्धते इति अवोचत्। तदवसरे सभापतिः लामिछाने कौटनीतिर्विषयम् दायित्ववाहितया संवेदनशीलरूपेण च बोद्धुमपि सर्वान् अन्वरुणात्। परराष्ट्रमन्त्री शिशिर खनालः भारतीय विदेश मन्त्रिणः एस जयशंकरस्य मैत्रीपूर्णायाम् निमन्त्रणायाम् ह्यः भारतस्य औपचारिक भ्रमणस्य कृते नयाँ दिल्लीस्थानम् प्राप्तोऽस्ति। परराष्ट्रमन्त्रिणः खनालस्य नयाँ दिल्लीवर्तिनी इन्दिरा गान्धी अन्तर्राष्ट्रिय विमानस्थले भारतस्य कृते नेपालस्य कार्यवाहक राजदूत डा सुरेन्द्र थापा, भारतस्य परराष्ट्र मन्त्रालयस्य अतिरिक्त सचिव मुनु महावर्च स्वागतम् विहितवन्तौ। भ्रमणस्य क्रमे परराष्ट्र मन्त्रिणा खनालेन स्वसमकक्षिणा भारतदेशस्य विदेश मन्त्रिणा जयशंकरेण सह मेलवार्ता करिष्यते इति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। मेलने अनयोर्मध्ये द्विपक्षीयस्य व्यापारस्य निवेशस्य ऊर्जसः जनस्तराणाम् सम्बन्धस्य च विविधेषु विषयेषु विमर्शनम् भविष्यतीति ज्ञापितम् वर्तते। परराष्ट्र मन्त्री खनालः सेवा ज्येष्ठ मासस्य चतुर्विंशे दिवसे स्वदेशम् प्रत्यागमिष्यतीति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन सम्पर्कविहीनाः सर्वकारीय कर्मचारिणः दिनत्रयस्य अभ्यन्तरे कार्यालयेषु उपस्थिताः भवितुम् अनुरुध्य अनुपस्थितेषु सत्सु दण्डनस्य प्रक्रिया अग्रे वर्धिष्यते चेति प्रत्यादिष्टम् वर्तते। मन्त्रालयेन ह्य सूचना प्रकाश्य अध्ययनावकाशे असाधारणावकाशे च सम्बद्धस्य अभिलेखस्य राष्ट्रिय सर्वकारीय पुस्तके स्वस्य अवकाशम् अद्यावधिकम् न कृतवन्तः कर्मचारिणः दिनत्रयस्य अभ्यन्तरे अनिवार्यरूपेण स्वस्य अभिलेखम् अद्यावधिकम् कारयितुम् च आहूताः वर्तन्ते। सर्वकारेण वानरादि वन्यपशुभ्यः विविध कृष्याम् प्रापिताया क्षतेः नियन्त्रणस्य उपायम् अन्वेष्टुम् साधारणजनेभ्यः परामर्शनस्य संकलनम् प्रारब्धम् वर्तते। कृषि वन वातावरण पर्यावरण मन्त्रालयस्य अन्तर्गतम् संघटितेन मानव वन्यजन्तु द्वन्द व्यवस्थापन प्राविधिक कार्यदलेन विषयेऽस्मिन् पञ्चदश दिवसानाम् अभ्यन्तरे परामर्शनम् प्रदापयितुम् अनुरुद्धम् अस्ति। वानरैः वन्यशुकरैः नीलगोभिः अन्यैः वन्यपशुभिश्च कृष्यां प्राप्त क्षतेः न्यूनीकरणस्य उपायानां कृते नीतिगत सुधारस्य च कृते च कार्यदलेन सर्वसाधारणजनेभ्य विज्ञेभ्यश्च परामर्शनम् याचितम् वर्तते। कृषि वन वातावरण मन्त्री गीता चौधरी गदति जलवायु परिवर्तनस्य समाह्वानां मध्ये आर्थिक समृद्धेर विषयः वातावरण संरक्षणस्य विषयश्च सैव अग्रे वर्धनीयौ। विश्व वातावरण दिवसस्य अवसरे पूर्वेद्यो काष्ठमण्डपे आयोजितं कार्यक्रमं सम्बोधयन् मन्त्री चौधरी समृद्ध भविष्यस्य आधार जलवायु प्रकृति मैत्री विकासश्चेति समागोषेण नेपालस्य सबल विकासस्य यात्रायै मार्गदर्शनं करिष्यते चेति अवोचत। सर्वकारेण वैदेशिक वृत्त्युपार्जन व्यवसायिनः सम्बद्ध निकायाश्च श्रमिकाणां नियमित रूपेण अनुगमनं कर्तुं निर्दिष्टाः वर्तन्ते। विदेशेषु कार्यरतैः नेपाली श्रमिकैः वृत्त्युपार्जन संविधायाः अनुसारेण वेतन सेवा सौविध्यानि सुरक्षितावासश्च प्राप्ताः न सन्तीति वेदनायाः वर्धनस्य पश्चात् प्रधानमन्त्री मन्त्रिपरिषदा कार्यालयेन युवश्रम वृत्त्युपार्जन मन्त्रालय परराष्ट्र मन्त्रालयश्च पत्रं लिखित्वा नियमित रूपेण अनुगमनं संविधायाः क्रियान्वयनश्च विधातुं निर्दिष्टौ वर्तेते। सम्पत्यनुसन्धानायोगेन निर्धारितैः सर्वैः पदाधिकारिभिः व्यक्तिभिश्च अस्यैव ज्येष्ठस्य अन्तं यावत् स्वस्व सम्पत्तिविवरणम् अर्पयिष्यते वेति विश्वासः व्यक्तोऽस्ति। सार्वजनिक पदे विद्यमानैः सेवानिवृत्तैः पदं त्यक्तवद्भिश्च वा जनैः स्वयम् उपस्थाय प्रतिनिधिर्माध्यमेन पत्राचार सेवा विभागस्य माध्यमेन सञ्जालस्य च माध्यमेन च वा स्वस्य सम्पत्ति विवरणस्य प्रस्तुतिर्व्यवस्था आयोगेन विहितास्तीति ज्ञापितं वर्तते। आयोगेन देशे प्रजातन्त्रस्य पुनस्थापनायाः 35 वर्षाणि चरणद्वये विभाज्य अनुसन्धानाय निर्णीतं वर्तते। तत्र प्रथमचरणे 62-अधिक-2000 विक्रमवर्षात् अधुनावधि कार्यरतानां विशिष्टजनानां द्वितीयचरणे च 48-अधिक-2000 विक्रमवर्षात् 62-अधिक-2000 विक्रमवर्षं यावत् कार्यं कृतवताम् उच्चपदीयानां जनानां च सम्पत्तेः अनुसन्धानाय निर्णीतं वर्तते। सूचना संचार मन्त्रालयेन सार्वजनिक सेवा प्रसारण संस्थायां दृष्टायाः आर्थिकानियमिततायाः प्रक्रियागत दुर्बलतायाश्च वित्तीयानुशासनस्य उल्लंघनस्य च विषयेषु अध्ययनम् अनुसन्धानं च विधातुं समितिः संघटिता वर्तते। मन्त्रालयेन स्वस्य आन्तर प्रयोजनाय विभिन्न निकायेषु प्रदत्तानि विरोध निवेदनानि मालेखा परीक्षकस्य कार्यालयस्य प्रतिवेदनं सार्वजनिकाभिरुचेः विषयाञ्च आधृत्य स्वतन्त्र रूपेण तथ्यपरकतया च अध्ययनाय समितिरियं संघटिता वर्तते। समितेः संयोजक पदे स्थपति डा आभास मास्के, सदस्येषु च उमेश रूपा खेती, टीकाराम कार्की, नवीन कुमार मिश्रश्च सदस्याः वर्तन्ते। मन्त्रालयस्य अनुसारेण सार्वजनिक सेवा प्रसारण संस्थया स्वस्य प्रसारण माध्यमानां प्रसारणम् उपग्रहस्य माध्यमेन कर्तुं वैदेशिक उपग्रह सेवा प्रदायक संस्थाभिः सह 2000-अधिक-2000 विक्रमवर्षात् अधुनावधि भाटक संविधा विधीयमानास्ति। तत्र संविधासु मध्ये मध्ये विधीयमानेषु प्रसारण सरण्याः वर्धनस्य उच्च प्रविधेः सम्पादनस्य रूपान्तरणस्य उपकरणानां क्रयणस्य च निर्णयेषु प्रश्नाः उत्थाप्यमानाः सन्ति। मन्त्रालयेन उत्थापितानां सम्पूर्ण विषयाणाम् अध्ययनं कृत्वा 21 दिवसानाम् अभ्यन्तरे परामर्शनेन सहितं प्रतिवेदनं प्रस्तोतुं समित्यै कार्यादेशः प्रदत्तोऽस्ति। इति समाचाराः।